श्री आदिनाथाय नमोस्तु तस्मै येनोपदिष्टा हठयोगविद्या बिभ्राजते प्रोन्नतराजयोगम् आरोढुमिच्छोरधिरोहिणीव। पद्मासनस्य प्रयोजनम् उक्तम्, किञ्च अग्रेपि किञ्चित् पद्मासनस्य विषये एव कथ्यते। इतोपि एकोनपञ्चाशत्तमश्लोकपर्यन्तमपि पद्मासनस्यैव विवरणम् अस्ति। कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन् पूरितम् न्यञ्चन् प्राणमतुलं शक्तिप्रभावान्नरः।
कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन् पूरितं न्यञ्चन् प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः। कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यायन् च तच्चेतसि वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोत्सारयन् पूरितं न्यञ्चन् प्राणम् उपैति बोधम् अतुलम् शक्तिप्रभावात् नरः।
अत्र एतच्च महायोगिसम्मतम् इति स्पष्टयितुम् अन्यदपि पद्मासने कृत्यविशेषमाह इति। नाम पद्मासने उपविश्य किञ्चित् क्रियान्तरं यत् महायोगिनां सम्मतं तादृशं क्रियान्तरम् अस्मिन् श्लोके बोध्यते। किं करणीयं? कृत्वा सम्पुटितौ करौ। सम्पुटितौ, सम्पुटीकृतौ करौ उत्सङ्गस्थौ इति शेषः। नाम कः अर्थः इति चेत्, एकस्य हस्तस्य उपरि अपरः हस्तः स्थापनीयः, अनन्तरं तच्च नाभिसमीपे स्थापनीयं। पद्मासने सामान्यतः उपवेष्टव्यं, नाम वामोरु उपरि दक्षिणपादस्थापनं, दक्षिणोरुपरि वामपादस्थापनं, तत्सर्वं करणीयमेव। तदनन्तरं तत् कृत्वा इत्यर्थः। तदनन्तरम् एकस्य हस्तस्य उपरि अपरो हस्तः स्थापनीयः। नाम पाम् पाम् अस्ति किल, एकं तत् करतलम् अपरस्य करतलस्य उपरि स्थापयित्वा नाभिसमीपे अधः पादस्य उपरि स्थापनीयः। कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनम्। पद्मासनं दृढतरं करणीयम्। अत्र पद्मासनं दृढतरं करणीयम् इति चेत् पादयोः विन्यासः एव अत्र पद्मासनं दृढतरं करणीयम् इत्यस्य अर्थः। गाढं वक्षसि सन्निधाय चिबुकं, नाम पूर्वमेव अस्माभिः दृष्टं चिबुकभागः, नाम तत्र वक्षसि सम्यक् निधातव्यः इति, नाम चतुरङ्गुल अन्तरं भवेत् तत्र वक्षसि निहितस्य चिबुकस्य हृदयस्य च मध्ये चतुरङ्गुल अन्तरं भवेत्, तादृशं चिबुकं तत्र वक्षसि स्थापनीयम्। तस्य तात्पर्यं कथयति व्याख्याता, किमिति कथयति? जालन्धरबन्धं कृत्वा इत्यर्थः। गाढं वक्षसि सन्निधाय चिबुकम् इति चेत् जालन्धरबन्धः इति, नाम तत्र नेक्, नाम तत्र थ्रोट् लाक् इति उच्यते, सः बन्धः करणीयः। जालन्धरबन्धस्य विषये अग्रे वयं पठामः, तृतीये उपदेशे, तृतीये अध्याये वयं पठामः, तस्य अनुष्ठानं करणीयम्। अनन्तरं ध्यायंश्च तत् चेतसि, तत् చేతసి ధ్యాతవ్యం ఇది, తస్య ధ్యానం కరణీయం. తచ్చబ్దేన కహ అర్థః స్వస్వ ఇష్ట ఇష్టదేవత రూపం బ్రహ్మవా ఇది. తచ్చబ్దేన కిముచ్యతే స్వస్వ ఇష్టదేవత అథవా బ్రహ్మ ఇది. బ్రహ్మ ఇది కథం కథ్యతే తచ్చబ్దేన ఇది చేత్ ఓం తత్సదితి నిర్దేశః బ్రహ్మణస్ త్రివిధ స్మృతః ఇది. ఓం తత్సత్ ఇది ప్రయోగేణ తత్పదస్య అత్ర సాన్నిధ్యం అస్తి కిల, భగవద్గీతోక్త ప్రకారేణ ఓం తత్సత్ ఇది యదా ప్రయోగః క్రియతే, తత్ర ఓం ఇతి అస్తి, తత్ అస్తి, సత్ అస్తి, ఏతాని త్రీణి పదాని మిలిత్వా వా వ్యస్తతయా వా యదా ప్రయోజ్యతే తత్ కిం సూచయతి, ఏతత్ పదత్రయమపి
బ్రహ్మ సూచయతి.
అతః ధ్యాయంశ్చ తత్ చేతసి ఇతి చేత్ బ్రహ్మ ఇత్యర్థః. అథవా స్వస్వ ఇష్టదేవతా రూపం ఇత్యపి స్వీకర్తుం శక్యతే ఇతి సహ వ్యాఖ్యాత కథయతి. అనంతరం ఏతావత్ శరీరక్రియ ప్రాణక్రియా కా, ఇదానీం ప్రాణస్య క్రియా కరణీయా కాచిత్ అస్మిన్ పద్మాసనే. వారం వారం అపానం ఊర్ధ్వం అనిలం ప్రోత్సారయన్ తదా కిం కరణీయమితి చేత్ పునఃపునః అపానవాయోః ఉపరి ఆనయనం కరణీయం. అనంతరం పూరితం న్యంచన్ ప్రాణం, అనంతరం పూరితః ప్రాణః బహిః త్యక్తవ్యః ఇతి. తన్నామ ఉచ్ఛ్వాస క్రియయోః అనుష్ఠానం సమ్యక్ కరణీయం ఇత్యర్థః. అపానం అనిలం అపానవాయుం ఊర్ధ్వం ప్రోత్సారయన్ తత్ర అనేన సామాన్య ప్రాణక్రియా వివరణం అత్ర ఉక్తం. తన్నామ సమ్యక్ ఉచ్ఛ్వాస నిశ్వాస అనుష్ఠానం కరణీయం ఇత్యుక్తం. తస్య ఇతోపి కించిత్ గాఢతరం వివరణం క్రియతే. అపానం అనిలం అపానవాయుం ఊర్ధ్వం ప్రోత్సారయన్ ఇత్యస్య కః అర్థః ఇతి చేత్ మూలబంధం కృత్వా ఇత్యర్థః. అత్ర అపానం అనిలం ప్రోత్సాహనం మూలబంధః అనేన అపానం ఊర్ధ్వం నయేదిత్యనేన కథం మూలబంధః జ్ఞాయతే ఇతి చేత్, మూలబంధస్య వివరణం కథం క్రియతే ఇతి చేత్, గుద ప్రదేశః అస్తి కిల మలవిసర్జనద్వారం, ఊర్ధ్వం ఆకృష్యతే చేత్ తదేవ సామాన్యతః మూలబంధః ఇత్యుచ్యతే. అన్యత్ తత్ర అపానవాయోః స్థానమపి గుదః, హృది ప్రాణః గుదే అపానః ఇత్యస్తి. సః అపానః అధోముఖః భవతి సామాన్యతః, తదా ఏవ మలవిసర్జనాది క్రియాః భవంతి, బహిః నిస్సారణం కరణీయం కిల. అస్మిన్ అనుష్ఠాన సందర్భే అపానం అనిలం ఊర్ధ్వం ప్రోత్సారయన్, అత్ర అపానం అనిలం ఊర్ధ్వం ప్రేరయన్ ఇతి చేత్, తత్ర గుదస్థానస్య మలవిసర్జన ద్వారస్య అంతర్ముఖత్వం అథవా ఊర్ధ్వముఖత్వం కరణీయం. తదేవ అపానం అనిలం ఊర్ధ్వం ప్రోత్సారయన్ ఇత్యస్య అర్థః. అనంతరం అన్యత్ కిం కరణీయం ఇతి చేత్, జాలంధరబంధః కరణీయః, మూలబంధః అపి ఉక్తః. అనంతరం పూరితం న్యంచన్ ప్రాణం, ప్రాణస్య కిం కరణీయం ఇతి చేత్, ప్రాణః పూరితః భవతి, నమ ఉచ్ఛ్వాసః కరణీయః. సమ్యక్ ఉచ్ఛ్వాసః నమ శ్వాసస్య పూరణం కరణీయం. శ్వాసస్య పూరణం కృత్వా పూరితః ప్రాణః న్యంచన్ నమ తస్య అధః ప్రేషణం కరణీయం ఇతి. అవగతం వా? నమ వాయుః అంతః పూరితః, ఉపరి గుదభాగః ఉపరి క్రియతే, తేన అపానభాగః ఉపరి ఆగచ్చతి, అపానవాయుః ఉపరి ఆగచ్చతి. పూరితః యః వాయుః సః అధః ప్రేష్యతే. అవగతం వా? సో ప్రాణః అధః ప్రేష్యతే, అపానః ఉపరి ఆకృష్యతే. తేన కిం భవతి ఇతి చేత్, ప్రాణాపానయోః ఐక్యం భవతి ఇత్యర్థః. ప్రాణాపానయోః ఐక్యం యదా భవతి, కిం భవతి ఇతి చేత్, ప్రాణాపానయోః ఐక్యానంతరం తత్ర సుషుమ్నా మార్గేణ ఏకీభూతస్య ప్రాణాపానయోః ప్రవేశః భవతి. స ఏవ కిల హఠయోగః ఇతి ఆరంభే ఉక్తం. అతః తాదృశ క్రియా అనేన అత్ర సంపాదనీయం ఇత్యుక్తం. తదా కిం భవతి ఇతి చేత్, అతులం బోధం ఉపైతి. నమ తత్ర ప్రాణః తత్ర విశిష్య సుషుమ్నా మార్గం ప్రవిశతి ఇతి కారణేన తత్ర విశిష్టం జ్ఞానం ఉత్పద్యతే ఇతి. ఆత్మతత్వ విషయే బోధః జాయతే శక్తి ప్రభావాత్ నరః. శక్తి ప్రభావః నామ కుండలినీ ప్రభావః. నమ కుండలిన్యాః జాగరణం కృత్వా యదా ప్రాణః తత్ర సుషుమ్నా మార్గే ప్రవిశతి తేన ప్రాణస్య ప్రవేశేన శక్తిః కుండలినీ శక్తిః జాగృతా భవతి. తస్యాః ప్రభావేణ కిం జాయతే ఇతి చేత్, తస్యాః జాగరణాత్ తస్యాః ఉపరి గమనాత్ కిం జాయతే ఇతి చేత్, అతులః బోధః ఉత్పద్యతే ఇతి. తత్ర ప్రాణాపానయోః ఐక్యే కుండలినీ బోధః భవతి ఇతి. ఇదానీం కిం కృతం? ప్రాణః అంతః పూరితః ప్రాణః అధః ప్రేష్యతే. అధః విద్యమానః అపానః ఉపరి ఆకృష్యతే. తేన ప్రాణాపానయోః ఐక్యం సంపాద్యతే. ప్రాణాపానయోః ఐక్యం యదా సంపాద్యతే తదా సుషుమ్నా ద్వారి తస్య ప్రవేశః భవతి ఏకీభూతస్య. తేన సుప్తాయాః కుండలిన్యాః కిం భవతి? జాగరణం భవతి. తదా కుండలిన్యాః బోధః భవతి. అనంతరం తదనంతరం క్రమేణ ప్రాణః బ్రహ్మరంధ్రం గచ్చతి. నమ కుండలిన్యాః జాగరణం, ప్రాణస్య బ్రహ్మరంధ ప్రవేశః. తేన కారణేన చిత్తస్థైర్యం భవతి ఇతి వ్యాఖ్యాత కథయతి. చిత్తస్థైర్యం భవతి. చిత్తస్థైర్యే ఆత్మసాక్షాత్కారః భవతి. స ఏవ అతులః బోధః ఇతి. అతః ఏవం పద్మాసనే ఉపవిశ్య ఏతాదృశం కృత్యం కరణీయం ఇతి. గృహీతం వా? హస్తౌ సంపుటితౌ కరణీయౌ స్థాపనీయ. పద్మాసనే ఉపవేష్టవ్యం. హస్తయోః సంపుటీకరణం, ఏకస్య కరతలస్య అపర కరతలస్య ఉపరి స్థాపనం కరణీయం. కస్య ఉపరిత ఉభావః కస్య అధః భావః ఇతి నోక్తం. కథంచిత్ ఏకస్య కరతలస్య ఉపరి అపరః కరతలః స్థాపనీయః. అనంతరం వక్షసి చిబుకస్య స్థాపనం కరణీయం, తన్నామ జాలంధరబంధస్య అనుష్ఠానం కరణీయం. మనసి కస్య ధ్యానం కరణీయం? తస్య ధ్యానం కరణీయం. తచ్చబ్దేన ఇష్టదేవత వా బ్రహ్మ వా గృహ్యతే. అనంతరం ప్రాణక్రియ కా కరణీయా ఇతి చేత్, తత్ర మూలబంధానుష్ఠానం కృత్వా గుదే విద్యమానః అపానః ఉపరి ఆక్రష్టవ్యః. అనంతరం ప్రాణస్య ఆచమనేన అథవా ప్రాణస్య క్రియయా అంతః ప్రవేశనం కరణీయం. పునః పూరితః ప్రాణః అధః ప్రేషణీయః. గుదే విద్యమానః అపానః ఉపరి ఆక్రష్టవ్యః. తేన అపానప్రాణయోరైక్యం భవతి. అపానప్రాణయోరైక్యే సతి తత్ర కుండలిన్యాః జాగరణం భవతి. కుండలిన్యాః జాగరణం యదా భవతి, కుండలినీ కుండలిన్యాః ఉత్థానం భవతి. తేన ప్రాణస్యాపి బ్రహ్మరంధ్రే ప్రవేశః భవతి. ప్రాణస్య బ్రహ్మరంధ్రే సుషుమ్నాయాం ప్రవేశే జాతే సతి చిత్తస్థైర్యం భవతి. చిత్తే స్థిరే సతి ఆత్మసాక్షాత్కారః భవతి ఇతి. పద్మాసనం ఏవ అత్ర కుండలినీ అనుష్ఠానస్య కృతే ఉచితం ఇతి అస్మిన్ శ్లోకే తత్ కథితం భవతి. స్పష్టం వా? ఏతావత్ పర్యంతం నకస్య కుండలిని జాగరణ उपायत्वेन अथवा कुण्डलिनी जागरण क्रियांगतया उपदेशः न कृतः, किन्तु पद्मासनस्य तु कृतमस्ति। तस्मात् पद्मासनं किञ्चन विशिष्टम् आसनम् इति उच्यते। अग्रे, पद्मासने स्थितो योगी नाडीद्वारेण पूरितं मारुतं धारयेद्यस्तु समुक्तो नात्र संशयः। अग्रे,
पद्मासने स्थितो योगी नाडीद्वारेण पूरितं मारुतं धारयेद्यस्तु समुक्तो नात्र संशयः। पद्मासने स्थितः योगी नाडीद्वारेण पूरितं मारुतं धारयेत् यः तु सः मुक्तः न अत्र संशयः।
अत्यन्तं सरलमस्ति। पद्मासने स्थितः योगी, यः योगी पद्मासने उपविष्टः, सः नाडीद्वारेण पूरितं मारुतं, नाडी अस्ति, इडा नाडी, पिङ्गला नाडी अस्ति, ताभ्यां पूरितं मारुतम्। अन्तः नाम पूरकं कुर्यात्, अनन्तरं किं कुर्यात्, पूरितः मारुतः भवति किल, तं धारयेत् इत्यस्ति। अस्य विवरणं किम् इति चेत्, यः पूरितं पूरकेण अन्तः नीतं मारुतं, पूरकं कृत्वा उभाभ्यां नासिकाभ्यां तत्र पूरकम् अनुष्ठाय अनन्तरं मारुतं वायुं सुषुम्नामार्गेण मूर्धानं नीत्वा इति शेषः। धारयेदित्यस्ति किल, धारणं नाम केवलं प्राणस्य उच्छ्वासं कृत्वा अन्तः धारणम् इति न अर्थः। प्राणस्य अन्तः धारणं कृत्वा अपानस्य ऐक्यं सम्पाद्य सुषुम्नाद्वारं प्रविश्य स च प्राणः सुषुम्नया तत्र गत्वा कियत्पर्यन्तं गच्छेत्? मूर्धभागपर्यन्तं गच्छेत्। तत्र धृत्वा इति, तत्र धारयेदिति, नाम प्राणः कुत्र धारयितव्यः? मूर्ध्नि। किं द्वारा प्रवेशितः?
सुषुम्ना नाडीद्वारा।
सुषुम्नाद्वारा प्रवेशितः, मूर्ध्नि धारयितः, धारयितव्यः। तदेव भगवद्गीतायामपि उच्यते, मूर्ध्न्याधाय आत्मनः प्राणम् आस्थितो योगधारणाम् इति। अतः नाम एवं योगिनः मूर्धानं भित्त्वा तत्र नाम प्राणत्यागं कुर्वन्ति किल,
कपालमोक्षवत्,
कपालभेदनम् एवमेव भवति। अनेनैव क्रमेण तद् उच्यते। नाम एतत् एतद् मध्ये श्रूयते किल, शैशवेभ्यस्तविद्यानां यौवने विषयेषिणां वार्धके मुनिवृत्तीनां योगेन अन्ते तनुत्यजाम् इत्यस्ति किल, योगेन अन्ते तनुत्यागः अनेन क्रमेण। एवम् अनुष्ठाय मूर्ध्नि प्राणस्य नयनं कृत्वा ततः यदा कदापि यदा इच्छति योगी तदा त्यक्तुम् अर्हति इति। अन्यदपि उच्यते, मूर्धद्वारा निर्गतः प्राणः यस्य भवति सः एव उत्क्रान्तिभाक् भवति इति। उत्क्रान्तिर्नाम अपुनरावृत्तिः, नाम अन्येषु अन्यद्वारं आधारीकृत्य यदि प्राणः निस्सरति पुनर्जन्म भवति अस्मिन् लोके। परन्तु मूर्धद्वारा यदि प्राणं कश्चित् उत्सृजति तदा किं भवति इति चेत्, भूः, भुवः, सुवः, महः, जनः इति तस्य उत्क्रान्तिस्सिध्यति। अन्यथा स्वर्लोकं गच्छति, पुनः भूलोकम् आगच्छति। एवं क्षीणे पुण्ये मर्त्यलोकं विशन्ति, अथवा दुष्कृत्यं कृतं चेत् पापलोकं गत्वा पुनः एवं तत्रैव सञ्चरन् न भवति इत्यर्थः। अतः मूर्धद्वारा त्यागः करणीयः इति। जपो ह्यशीर्षकपाले इति वेदे अपि अस्ति। अतः शीर्षकपाले व्यपोह्य, नाम स्कल् अस्ति किल, शीर्षकपालं नाम स्कल्, तौ तत् कपालद्वयं व्यपोह्य तच्छित्वा ततः प्राणः त्यक्तव्यः। अयं विषयः न केवलं हठयोगग्रन्थस्थः मूर्धद्वारा प्राणत्यागः इति, वेदेषु एव अस्ति। तद् मन्त्रः मया उद्धृतः किल, तत्रैव अस्ति। अतः एषु दिनेषु कश्चित् प्रचारः अस्ति, एतादृश हठयोग अनुष्ठानादिकं తత్సర్వం బౌద్ధధర్మద్వారా ఏవ అస్మిన్ దేశే అస్యాం సంస్కృతౌ ప్రసిద్ధం జాతం ఇది కేచన పాశ్చాత్యాః విద్వాంసః కిమపి వదంతః సంతి. పరంతు ఏతాదృశ హఠయోగ వివరణం యదస్తి మూర్ధ మూర్ధ్ని ప్రాణస్య ప్రవేశః తథా త్యాగః ఇత్యాది భగవద్గీతాయాం అస్తి, గతపూర్వం వేదేష్వేవ అస్తి. తస్మాత్ ఏతాదృశ హఠయోగ క్రియాః సర్వాః దృఢతయా వైదికాః ఏ వైదిక్యః ఏవ ఏతాః క్రియాః ఇత్యత్ర సంశయ ఏవ నాస్తి. పునః కఠోపనిషద్యపి బహుధా అస్తి శతంచైకా చ హృదయస్య నాడ్యః తాసాం మూర్ధానం అభినిసృత్యైకా ఇతి. తత్ర ఏకా ఏకాధిక శతం నాడ్యః భవంతి తత్ర భిత్వా ఏకా నాడీ గచ్చతి ఆ సుషుమ్నా నాడీ తద్వారా ఏవ తత్ర ప్రాణస్య ఊర్ధ్వగమనం భవతి. కఠోపనిషది అస్య ప్రాచీన ఉపనిషద్యేవ ఏవం ఉల్లేఖ అస్తి. ఏతాదృశ వివరణాని సంతి ఇతి అస్మాభిః దృఢం జ్ఞాతవ్యం. అస్తు ఏవం ఏకోనపంచాశత్తమ శ్లోకే పద్మాసనస్య విషయే కథయిత్వా అత్ర ఉపసంహారః కృతః. యః ఏతాదృశం ధారయేత్ మారుతం సః ముక్తః న అత్ర సంశయః. యథా మయా ఉక్తం ఏవం యః ప్రాణం ధారయతి తతః చ ఉత్క్రమతే సః ముక్తః అవశ్యం భవతి, అత్ర సంశయః ఏవ నాస్తి. అగ్రే సింహాసనం అగ్రిమశ్లోకే పంచాశత్తమః శ్లోకః. తత్ర సింహాసనస్య వివరణమస్తి. అథ సింహాసనం గుల్ఫవృషణస్యాథ సీవన్యాః పార్శ్వయోః క్షిపేత్ దక్షిణే సవ్యగుల్ఫంతు దక్షగుల్ఫంతు సవ్యకే.
గుల్ఫౌ చ వృషణస్యాథ సీవన్యాః పార్శ్వయోః క్షిపేత్ దక్షిణే సవ్య గుల్ఫంతు దక్ష గుల్ఫంతు సవ్యకే. గుల్ఫౌ చ వృషణస్య అధః సీవన్యాః పార్శ్వయోః క్షిపేత్ దక్షిణే సవ్య గుల్ఫం తు దక్ష గుల్ఫం తు సవ్యకే.
కిమస్తి గుల్ఫౌ వృషణస్య అధః సీవన్యాః పార్శ్వయోః క్షిపేత్ ఇత్యస్తి. గుల్ఫౌ ఇతి శబ్దస్య కః అర్థః? ఆంకిల్స్. గుల్ఫయోః స్థాపనం, కుత్ర స్థాపనీయం? వృషణం, వృషణం నామ స్క్రోటం ఇతి ఉచ్యతే. తస్య అధః అధః ఆంకిల్ స్థాపనీయం. తస్య గుల్ఫయోః నామ ద్వయోః అపి గుల్ఫయోః స్థాపనం స్క్రోటం ఇతి యః భాగః ఉచ్యతే తస్య అధః స్థాపనం కరణీయం. వృషణస్య అధః వృషణస్య అధః అపి కుత్ర స్థాపనీయం ఇతి చేత్ సీవన్యాః పార్శ్వయోః ఇతి. సీవనీ ఇతి ఏకః శబ్దః అస్తి. సీవనీ శబ్దస్య పెరినియం ఇతి అర్థః. పెరినియం సః భాగః యః వృషణస్య అధః గుదస్య ఉపరి ఏకా రేఖా భవతి సః భాగః సీవనీ ఇతి ఉచ్యతే. తత్ర సీవన్ సా రేఖారూపేణ భవతి తస్య పార్శ్వయోః కిం క్షిపేత్ క్షిపేత్. తత్రాపి కశ్చిత్ క్రమః అస్తి, దక్షిణే సవ్యగుల్ఫం క్షిపేత్. తత్ర సీవనీ నామ కాచిద్ రేఖా భవతి గృహ్యతే, నామ సీవనీ శబ్దస్య సాక్షాదర్థః పరిణియం ఇతి. స చ పెరినియం భాగః కుత్ర భవతి ఇతి చేత్ వృషణస్య అధః గుదస్య ఉపరి భవతి, ఏక రేఖా స్టిచ్ ఇవ భవతి, సీవనం కృతం ఇవ భవతి సః భాగః, అతః సీవనీ ఇతి ఉచ్యతే. తత్ర కిం కరణీయం ఇతి చేత్ దక్షిణ దక్షిణభాగే దక్షిణభాగే సవ్యగుల్ఫం నమ వామగుల్ఫం స్థాపనీయం. అనంతరం సవ్యభాగే తన్నామ వామభాగే దక్షిణగుల్ఫం స్థాపనీయం. ఏవం స్థాపయిత్వా ఉపవేష్టవ్యం. ఏతత్ కిం ఆసనం ఇత్యుచ్యతే?
సింహాసనం.
ఇతోపి ఇతోపి అగ్రే అస్తి, ఇతోపి కాచిత్ క్రియా అస్తి, సింహాసన సంబద్ధ క్రియా అస్తి. ఏతత్ పాదయోః కుత్ర స్థాపనం కరణీయం ఇతి విషయే ఉక్తం. అగ్రే ఇతోపి హస్తయోః कार्यमस्ति, अङ्गुलीनां कार्यमस्ति, अनन्तरं मुखस्यापि किञ्चित् कार्यम् अत्र अस्ति. तत् अग्रिमे श्लोके उच्यते. एकपञ्चाशत्तमः श्लोकः. हस्तौ तु जान्वोस्थं स्थाप्य स्वाङ्गुलीः सम्प्रसार्य च व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः.
हस्तौ तु जान्वोस्संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः. हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च व्यात्तवक्त्रः निरीक्षेत नासाग्रं सुसमाहितः.
अस्तु, अहं तत्र सिंहासनस्य चित्रं प्रेषितवान् अस्मि किल, तत्र दृश्यता. इदानीं पादयोः कार्यं नाम तत्र तत् क्रास्ड् इव अस्ति, नाम नीलिङ्ग् इव पोसिशन् अस्ति किल, आल्मोस्ट् नीलिङ्ग् इव पोसिशन् अस्ति. तदा हस्तयोः किं कार्यं? हस्तौ जान्वोः उपरि स्थापनीयौ. स्पष्टं वा? जानु नाम नी. हस्तौ जान्वोः उपरि स्थापनीयौ. अनन्तरं स्थापितहस्तौ नाम कथं भवेताम् इति चेत् अङ्गुलीः तत्र प्रसारणीयाः. अङ्गुलीनां प्रसारणं करणीयम्, अङ्गुलीनां योजनं न करणीयं. प्रसारित अङ्गुलीकः भवेत् योगी. अनन्तरं तस्य मुखं किं भवेत्? तत्र तस्य वक्त्रं नाम मुखं व्याप्तं भवेत्. व्याप्तं नाम उद्घाटितम् इत्यर्थः. मुखम् उद्घाटितं भवति. तत्र श्लोके व्याप्तवक्त्रः इति मात्रमस्ति. व्याख्याता किं वदति? व्याप्तवक्त्रः सम्प्रसारित ललत् जिह्वमुखः इति उक्तमस्ति. न केवलं मुखम् उद्घाट्य उपवेष्टव्यं, किन्तु किं करणीयं? तस्य जिह्वा अपि प्रसारणीया बहिः. जिह्वायाः प्रसारणं कृत्वा बहिः तस्य चालनं करणीयं. ललत् जिह्वः इत्यस्ति किल, तस्य किञ्चित् जिह्वायाः चालनमपि करणीयम्. ललज्जिह्वः. अनन्तरं नेत्रक्रिया का अस्ति? निरीक्षेत. अग्रं निरीक्षेत. नासिकायाः अग्रभागः यः अस्ति सः भागः द्रष्टव्यः, सुसमाहितः. एवं स्थिरबुद्धिकतया सावधानतया एतादृशम् आसनं करणीयम् इति एताः क्रियाः उक्ताः. तर्हि पूर्वोक्तक्रमेण तत्र गुल्फयोः सीवन्याः पार्श्वयोः स्थापनं करणीयम्, तत्रापि व्युत्क्रमेण स्थापनं करणीयम्. दक्षिणगुल्फं सव्यभागे, सव्यगुल्फं दक्षिणभागे करणीयम्. अनन्तरं हस्तौ तत्र जान्वोः उपरि स्थापनीयौ. हस्तयोः अङ्गुल्यः अपि तत्र प्रसारिताः स्युः, किञ्च मुखमपि उद्घाटनीयम्. अनन्तरं जिह्वा तत्र बहिः भवेत्. अनन्तरं दृष्टिः नासाग्रे भवेत्. मनः अपि तत्र शान्तं भूत्वा सुसमाहितः. मनः अपि तत्र शान्तं भवेत्, सम्यक् अस्मिन् नाम आसने सः तिष्ठेत्. एवं क्रियते चेत् एतत् किम् आसनम् इति अग्रिमश्लोके तस्य नामकरणं, क्रियाः अत्र उक्ताः पञ्चाशत् पर्यन्तम्, एकपञ्चाशत् पर्यन्तं. पञ्चाशत्तमे श्लोके, एकपञ्चाशत्तमे श्लोके च क्रियाः उक्ताः. एतादृश्यः क्रियाः यस्मिन् आसने क्रियते तस्य आसनस्य नामकरणम् अग्रिमे श्लोके अस्ति. सिंहासनं भवेदेतत् पूजितं योगिपुङ्गवैः बन्धत्रितयसन्थानं कुरुते चासनोत्तमम्.
सिंहासनं भवेदेतत् पूजितं योगिपुङ्गवैः बन्धत्रितयसन्धानं कुरुते चासनोत्तमम्. சிம்ஹாசனம் பவேத் ஏதத் பூஜிதம் யோகி புங்கவைஹி பந்தத்ருதய சந்தானம் குருதே ச ஆசனோத்தமம்.
சிம்ஹாசனம் பவேத் ஏதத் நம ஏதத் நம பூர்வோக்த க்ரமேண யத் அனுஷ்டீயதே ததேதத் சிம்ஹாசனம் இத்யுச்யதே. இதி பூஜ்யதே, கைஹி பூஜ்யதே, யோகி புங்கவைஹி, புங்கவ சப்தஸ்ய ஸ்ரேஷ்ட ஸ்ரேஷ்டஹ ஸ்ரேஷ்டைஹி இத்யர்த்தஹ. புங்கவைஹி நம ஸ்ரேஷ்டைஹி, யோகிஷு ஸ்ரேஷ்டைஹி, யோகினாம் ஸ்ரேஷ்டைஹி ஏதத் சிம்ஹாசனம் இதி பூஜ்யதே. கிமர்த்தம் சிம்ஹாசனம்?
சிம்ஹவத் ஆக்ருதிஹி சாதகஸ்ய பவதி பஞ்சாநனத்வம்.
சத்யம், தஸ்ஸா வா வ்யாத்தவக்த்ரஹ கில. அதஹ சிம்ஹாசனம் பவேதேதத் பூஜிதம் யோகி புங்கவைஹி. அனந்தரம் பந்தத்ரிதய சந்தானம் குருதே. ஏதத் ஆசனம் கிமர்த்தம் பூஜ்யதே யோகி புங்கவைஹி? ஆசன உத்தமம் இத்யபி கத்யதே இதம். கிமர்த்தம் இதி சே பந்தத்ரிதய சந்தானம். த்ரிதயம் நாம த்ரிப்ரகாரக பந்தம், பந்தத்ரயம். அஹம் பூர்வம் அப்படி கிஞ்சித் உல்லிகிதவான், ஜாலந்தர பந்தஹ, மூலபந்தஹ, உட்யான பந்தஹ இதி பந்தத்ரயம். அபி யோஜனம் சந்தானம் அனுஷ்டானம் தத் சந்நிதானம் இத்யஸ்தி. நம யுகபத் பந்தத்ரயஸ்யாபி அனுஷ்டானம் அஸ்மின் ஆசனே சம்பவதி. யதா பந்தானாம் அனுஷ்டான பூர்வகதயா பிராணாபானயோர் ஐக்யார்த்தம் பிரயத்ன க்ரியதே ததா ஏவ பிராணாபானயோஹோ சுஷும்னா பிரவேசஹ பவதி. நம ஏகீபூதயோஹோ பிராணாபானயோஹோ சுஷும்னா பிரவேசஹ பவதி. அவகதம் வா? சாமான்யதஹ வயம் பிராணாயாமாதிகம் குர்மஹ, பந்தம் வினா குர்மஹ. யதி பந்தத்ரய பூர்வக பிராணாயாம அனுஷ்டானம் க்ரியதே ததா கிங் கரோதி, பிராணஹ சுஷும்னாயாம் ப்ரவிஷதி. அதஹ பந்தத்ரிதய சந்தானார்த்தம் ஏதத் ஆசனம் விசிஷ்டம். அத்ர உபவிஷ்ய குண்டலினி பிரபோதனம் கரோது இதி நோக்தம். பந்தத்ரிதய சந்தான அப்யாசாய இதம் ஆசனம் கிம்? பந்தத்ரிதய அப்யாசாய இதம் ஆசனம் கிங் கரோதி? அனுஷ்டானாய சாஹாயம் கரோதி. தஸ்ய அப்யாசம் கிருத்வா குண்டலினி பிரபோதம் கஸ்மின் ஆசனே கரணீயஹ?
பத்மாசனே கரணீயஹ.
அதஹ இதம் ஆசனோத்தமம் கயா திருஷ்ட்யா அக்ரே குண்டலி தஸ்ய சாஹாயம் கரோதி இதி கிருத்வா தத்வாரீபூததய இதம் உத்தமம் இதி கிரஹீதவ்யம். அத பத்ராசனம், பத்ராசனம் நம சித்தாசனம் திருஷ்டம், பத்மாசனம் திருஷ்டம், சிம்ஹாசனம் திருஷ்டம். இதனிம் தேஷு ஆசன உத்தமம் ஆசனோத்தமம் இது உக்தம் கிள, தத்ர சதுர்த்தம் உத்தமம் ஆசனம் எதஸ்தி தத் அந்திமம் ஆசனம். ஆசன சரணௌ அஸ்ய அஸ்ய அத்யாயஸ்ய ஆசன சரணௌ இதம் பஞ்சதசம் ஆசனம். அத பத்ராசனம் குல்ஃபௌ ச விருஷணஸ்யாத சீவன்யாஹ பார்ஷ்வயோஹ க்ஷிபேத் சவ்யகுல்ஃபம் ததா சவ்யே தக்ஷகுல் தக்ஷகுல்ஃபம் து தக்ஷிணே.
குல்ஃபௌ ச விருஷணஸ்யாத சீவன்யாஹ பார்ஷ்வயோஹ க்ஷிபேத் சவ்யகுல்ஃபம் ததா சவ்யே தக்ஷகுல்ஃபம் து தக்ஷிணே. குல்ஃபௌ ச விருஷணஸ்ய அதஹ சீவன்யாஹ பார்ஷ்வயோஹ க்ஷிபேத் சவ்யகுல்பம் ததா சவ்யே தக்ஷகுல்பம் து தக்ஷிணே.
அத்யந்தம் சரளம். பிரதமா பங்க்திஹி பத்ராசனஸ்ய சிம்ஹாசனஸ்ய சமானா. குல்பௌ குத்ர க்ஷேப்தவ்யௌ? விருஷணஸ்ய அதஹ. குத்ர? சீவன்யாஹ பார்ஷ்வயோஹ உபயமபி ததேவ. பரந்து பூர்வத்ர தத்ர கிம் ஆசீத்? தத்ர கிறிஸ் கிராஸ் ஆசீத். தக்ஷகுல்பம் சவ்ய பார்ஷ்வே, சவ்யகுல்பம் தக்ஷ பார்ஷ்வே இத்யாசீத். பரந்து அத்ர ததா நாஸ்தி. தக்ஷிணபாகே தக்ஷிணகுல்பம் சீவன்யாஹ பெரினியம் இதி எது உச்சதே சீவனீதி. விருஷணஸ்ய அதஹ குதஸ்ய உபரி சஹ பாகஹ அஸ்தி. தத்ர वामभागे वामगुल्फं, दक्षिणभागे
दक्षिणगुल्फं।
तावदेव। तत्र क्रिस् क्रास् भवति चेत् तत् सिंहासनं, तत्तत् पार्श्वे तत्तद् गुल्फस्य स्थापनं
भद्रासनं।
तावदेव, कार्यं समाप्तम्। अग्रे इतोपि अस्ति, यतोहि तत्र पादक्रिया उक्ता, अग्रिम अवयवानां हस्तादीनाम् अवयवानां तत्र निवेशः कथं करणीयः इति अस्माभिः द्रष्टव्यम्। पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् इति चित्रं प्रेषितमस्ति वा? तत्र किं करणीयं? पार्श्वपादौ, पार्श्वपादौ इत्युक्ते पादयोः पार्श्व भागः अस्ति किल, तत् फीट् अस्ति किल, सः भागः पाणिभ्यां दृढं बद्धव्यौ, नाम पाणिभ्यां सम्यक् गृहीतव्यौ। अनन्तरं सुनिश्चलं, नाम तत्र शरीरं न चले, तत्र स्थिरतया उपवेष्टव्यं। भद्रासनं भवेदेतत् सर्वव्याधिविनाशनं, गोरक्षासनमित्याहुः इदं वै सिद्धयोगिनः। एतं श्लोकमेकवारं पठतु।
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलं, भद्रासनं भवेदेतत् सर्वव्याधिविनाशनं, गोरक्षासनमित्याहुरिदं वै सिद्धयोगिनः।
नाम त्रिपञ्चाशत्तमे श्लोके पादक्रिया उक्ता, जानुनोः नाम गुल्फयोः कुत्र स्थापनं करणीयम् इत्युक्तं। चतुष्पञ्चाशत्तमे श्लोके पार्श्वपादौ पाणिभ्यां दृढं बद्धव्यौ शरीरञ्च सुनिश्चलं भवेत्, नाम किञ्चिदपि चलनं न भवेदिति। निश्चलम् इति उच्यते चेदेव तत्र चलनं न भवेदित्यस्ति, सुनिश्चलम् इति चेत् ईषदपि चलनं न भवेत् इति। तदा यदि स्थीयते तदा भद्रासनं भवेदे। हा, एतत् किमिति आसनं, किम् आसनम् इत्युच्यते? भद्रासनम् इत्युच्यते। सर्वव्याधिविनाशनं, सर्वव्याधीनां निवारणम् एतत् भवति। गोरक्षासनम् इत्याहुः, एतदासनं गोरक्षासनम् इत्यपि नाम्ना कथ्यते। कैः? किभिः? के के च सिद्धयोगिनः भवन्ति ते इदमासनं गोरक्षासनम् इत्यपि कथयन्ति। किमर्थम् इदं गोरक्षासनं? व्याख्याता वदति, गोरक्षेण प्रायः अभ्यस्तत्वात् गोरक्षासनम् इति। प्रायः गोरक्षः इति कश्चित् नाथः, नाथसम्प्रदायस्थ आचार्यः, पूर्वं नाथसम्प्रदायस्थानां गुरूणाम् आवलिः अस्माभिः दृष्टा किल, तत्र गोरक्षः अपि अन्यतमः विशिष्टः। गोरक्षसंहिता, गोरक्षशतकम् इति नानाग्रन्थाः तन्नाम्नि प्रसिद्धाः सन्ति। गोरख्पुर् इति भारते किञ्चन स्थानमस्ति, नेपालप्रान्ते, नाम नेपालस्य समीपे, तत्र गोरख्पुर् इति उच्यते, भारतस्य नेपालयोः सीमप्रदेशे वर्तते। तत् गोरख्पुर्, गोरक्षपुरं, गोरक्षमठः अपि वर्तते। प्रसिद्धः आचार्यः गोरक्षकः इति, तत्र हठनाथसम्प्रदाये प्रमुखः आचार्यः, तेन इदम् अभ्यस्तम् इति कारणेन अपि इदं किम् इत्युच्यते आसनं? गोरक्षासनम् इति। सिद्धयोगिनः इति के वदन्ति? सामान्याः योगिनः न, वयं सर्वे सामान्याः योगिनः। किमर्थं नाम तदा योग अध्ययने रताः वयं, अतः वयं सामान्याः योगिनः। परन्तु कैः इदं गोरक्षासनम् इत्युक्तं? सिद्धयोगि, ये योगमार्गे सिद्धिं प्रापुः ते योगिनः एतद् गोरक्षासनम् इति वदन्ति। तस्मात् एतन्नाम समादर्तव्यम् इत्यर्थः। अतः सिद्धयोगिनः इदं गोरक्षासनम् इति कथितवन्तः। पश्यतु, इदं भद्रासनम् इति किमर्थम् उच्यते? भद्रं नाम कार्तः, मङ्गलं, मङ्गलं नाम व्याधिराहित्यमेव मङ्गलसूचकम्। अतः सर्वव्याधिविनाशनम् इदं मङ्गलकरम् आसनं, व्याधिपीडा आदिव्याधीनां निवारणं करोति इति कारणेन इदं भद्रासनम् इत्युच्यते। पश्यतु एतदासनं किं करोति, व्याधीनां निवारणं करोति। पूर्वतनमासनं बन्धाद्यनुष्ठाने सौकर्यं करोति। पद्मासनं तावत् किं करोति, तत्र तत्र कुण्डलिनी अभ्यासाय सहकरोति। आरम्भे सिद्धासनं किं करोति, 35वें श्लोके सिद्धासने उपविश्य ध्यानं करणीयम् इत्युक्तं किल, तत्र प्राणक्रिया अपि नोक्ता, योनिस्थानकम् इत्यादि कृत्वा प्राणुः संयमितेन्द्रियः अचलदृशा पश्येद्भ्रुवोदन्तरम्, एतत् मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते इत्युक्तं। किं भवति, एकं सिद्धासनमेव अनुष्ठातुं शक्यते यत् सर्वप्रयोजनमपि सम्पादयति। तदर्थं महती सिद्धता करणीया, अथवा भद्रासनं सिंहासनं कृत्वा पद्मासने प्राणक्रियादिकं कृत्वा कुण्डलिनीप्रबोधादिकं प्राप्तुं शक्यते। अतः एतद् चतुष्टयमस्ति किल, तत्रापि कश्चित् विभागः अस्ति। एतेषु चतुर्ष्वपि आसनेषु अत्यन्तं प्रमुखं किम् आसनं, सिद्धासनं। तत्र उपविश्य ध्यानं क्रियते चेत् साक्षात् मोक्षप्राप्तिः, तश्लो 35वें श्लोकोक्तप्रकारेण। तन्न शक्यते चेत् एतानि त्रीणि आसनानि उपयुज्य, भद्रासनेन व्याधिविनाशनं, सिंहासनेन बन्धत्रितय अभ्यासः, पद्मासने उपविश्य अपानप्राणयोः ऐक्यसम्पादनं, तेन मोक्षप्राप्तिः, अथवा तत्र मूर्ध्नि प्राणस्य स्थापनम् इत्यादि इत्यादि। अतः एकं सिद्धासनं परं पदं नयति, अथवा आसनत्रितयम्, एवं तत्र विभागः अस्माभिः दृश्यते। एवम् अत्र आसनानां विवरणं उक्तं 55वें श्लोकं वयं दृष्ट्वा अत्र स्थगयामः। तत्र उपसंहारः क्रियते आसनप्रकरणस्य, इतः अग्रे कर्तव्याकर्तव्य विचारः, किञ्चित् आहारनियमः इत्यादि उच्यते अवशिष्टश्लोकैः अस्य अध्यायस्य। अस्मिन् श्लोके आसनस्य उपसंहारः, एवमासनबन्धेषु योगीन्द्रो विगतश्रमः अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनक्रियाम्।
एवमासनबन्धेषु योगीन्द्रो विगतश्रमः अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनक्रियाम्। एवम् आसनबन्धेषु योगीन्द्रः विगतश्रमः अभ्यसेत् नाडिकाशुद्धिं मुद्रादिपवनक्रियाम्।
एवम् आसनबन्धेषु आसनप्रकारेषु विगतश्रमः योगीन्द्रः नाडिकाशुद्धिम् अभ्यसेत्। तत्र आसनानुष्ठाने तस्य श्रमः न भवेदिति। तस्य कः अर्थः इति चेत्, आसनकरणमेव यदि कस्यचित् श्रमम् उत्पादयति, ततः सः अग्रिम अन्यक्रियाः कथं कर्तुं शक्नुयात्। अतः पुनः पुनः अभ्यासः यदा क्रियते आसनानुष्ठानसमये, तत्र श्रमः न भवति। शरीरे तथैव किल, इदानीं केनचित् मेराथान् तत् धावनीयं चेत् कः सहजतया धावितुं शक्नोति, यः पुनः पुनः तत् धावितवान् अस्ति, विना श्रमं सः धावितुं प्रभवति किल। एवमेव सम्यक् आसनं यदा अभ्यस्तं केनचित्, आसनानुष्ठानेन श्रमः जायते इति न भवति, तदा विगतश्रमः भवति योगी। अनन्तरं तत्र कार्यं करणीयमस्ति, इतोपि बहु कार्यमस्ति। किं करणीयम्, अभ्यसेत् नाडिकाशुद्धिं, नाडीशुद्धि प्राणायामस्य तत्र अभ्यासः करणीयः, नाडीनां शोधनं करणीयम्। अनन्तरं मुद्रादिपवनक्रियाम्, इतोपि अग्रे मुद्रादीनाम् अनुष्ठानम् उच्यते। पवनक्रिया नाम एतत् सर्वमपि प्राणशोधनक्रियाः सन्ति, एताः सर्वाः, तत्सर्वमपि करणीयं। नाम आसने श्रमराहित्यं सम्पाद्य नाडीशोधनं मुद्रा इत्येवं नानाविधक्रियाः अग्रे योगिना कर्तव्याः इति निर्दिश्यते. नाम यः इदानीं केन क्रमेण तद्भवति इति चेत् चत्वारि विशिष्टासनानि उक्तानि, ततः पूर्वम् एकादशासनानि उक्तानि. तानि एकादशासनानि सम्यक् कृत्वा पुनः नाडीशोधनादि अनुष्ठानं कृत्वा क्रमेण एतत् आसनत्रयमपि कृत्वा अग्रे च यथाशक्ति सिद्धासनादिकं कृत्वा, नाम एवम् एतत् लीनियर् इति नास्ति. आसनं कृत्वा अनन्तरं प्राणायामं कृत्वा अनन्तरं मुद्रादिकं कृत्वा अनन्तरं नादानुसन्धानम् इति न, तत् कान्सेण्ट्रिक् सर्कल् इव. आसनानुष्ठानम् आसने प्रावीण्यं तत् सम्पादयन् एव भवेत् योगी, तावता नाडीशोधनक्रियादिकमपि तेन कर्तव्यम्. तदा पश्यतु, अहं शरीरस्य सर्वविधसिद्धतां कृत्वा अनन्तरं प्राणस्य कार्ये आरम्भं करोमि इति न भवति. सर्वत्रापि क्रमेण कार्यस्य आरम्भः करणीयः, किञ्चित् किञ्चित् किञ्चित्. इदानीं सामान्यतः भारते परीक्षाप्रक्रिया एवमस्ति, यथा विद्यालयेषु सर्वमपि सब्जेक्ट् किञ्चित् 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 पठ्यते सेमेस्टर् बै सेमेस्टर्. नाम एकस्मिन् दिने सर्वविधकक्षाः अपि भवन्ति, मेथमेटिक्स्, इङ्ग्लिश्, सैन्स् इत्येवम्. एवमेव सर्वाणि तानि उपकरणानि सन्ति किल, प्राणायामः, आसनं, मुद्रा इत्यादि सर्वमपि किञ्चित् 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 सम्यक् पठनीयं, परन्तु आसने विशिष्य अवधानं दातव्यम् आरम्भस्तरे. प्राणायामे किञ्चित् न्यूनं, मुद्रादिषु न्यूनं, ध्यानाद्यनुष्ठाने किञ्चित् न्यूनमेव. क्रमेण यदा प्रगतिः भवति अनेन मार्गेण, तदा आसनं तु सरलतया सिद्ध्यति. तदा फोकस् अधिकं कुत्र भवति? प्राणायामे. तदा तत्र गौरवलाघवभावेनैव सर्वत्र गन्तव्यम्. आसन, प्राणायाम, मुद्रा, बन्धादिकं सर्वमपि किं युगपत् अथवा क्रमेण आचार्यबोधिततया, नाम एकयोगाभ्यासाङ्गतया सर्वमपि कर्तव्यम्. किन्तु तत्र गुणप्रधानभावः भवेत्. आरम्भे आसनाधिक्यं, प्राणायामे गौणत्वम्, अनन्तरं काले अग्रे गते सति आसने गौणत्वं, प्राणायामे प्रामुख्यम्, इतोपि किञ्चित् गौणतया मुद्राद्यनुष्ठानम् इति. अतः अनेन क्रमेणैव योगाङ्गानि द्रष्टव्यानि, न तु लीनियर् रूपेण एकस्य अनन्तरम् एकम् इति न. प्राधान्यस्य किमस्ति? लीनियारिटि अस्ति. किं प्रधानं भवेद् इत्यस्य प्रथमम् आसनं प्रधानम्, अनन्तरं प्राणायामः, अनन्तरं ध्यानम् इति. परन्तु अभ्यासस्य तु सर्वस्यापि युगपत्त्वमस्ति, परन्तु तत्र गुणप्रधानभावेन. तत् गृहीतं किल? एतद् बहु मुख्यमस्ति, एतद् बहु मुख्यम्. अन्यथा बहवः पृच्छन्ति, ओ प्रथमं तर्हि यमस्य अनुष्ठानं करणीयम्, अनन्तरं नियमस्य अनुष्ठानं करणीयम्, अनन्तरम् आसन, इत्येवं नास्ति. सर्वत्रापि मन्दं मन्दं किञ्चित् 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 प्रगतिः साधनीया. अस्तु, अत्र स्थगयामः. श्रियादिनाथाय नमोऽस्तु तस्मै नोपदिष्टा हठयोगविद्या, बिभ्राजते प्रोन्नतराजयोगम् आरोढुमिच्छोरधिरोहिणीव.